यप्राणतो निमिषतो महित जगतो बभूव तद्विप्राशो विपन्यवो जागृवां शस्मिन्धते विष्णोर्यत्परमं पदम्
गणपतिं त्वा त्वा गणपतिं हवामहे
विष्णोर्नुकं प्रावोचं वीर्याणि यः पार्थिवानि विममे
गणपतिं हवामहे हवामहे गणपतिं गणपतिं हवामहे कविं कविं हवामहे गणपतिं हवामहे
सर्वमम अखिलार्थमूर्ति
गणपतिमिति गणपतिम्
य आत्मदामलदायश्च विश्व उपासते प्रदिशय्यस्य देवाः
जगतो बभूव य ईशे अस्य त्रिपदश्चतुष्पदः कस्मै देव्यः हविषा अभिधेम इदो